एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। जलवायु विज्ञः हिमालयीय क्षेत्रेषु जलवायु परिवर्तनस्य प्रभावः अधिको भवतीति उल्लिख्य एतस्य क्षतिपूर्तये विश्वजगतः ध्यानाकर्षणं विहितं वर्तते। सगरमाथा संवाद कार्यक्रमस्य द्वितीये दिवसे ह्य काष्ठमण्डपे हिमालयीय क्षेत्रेषु हानिः क्षतिश्चेति विषयके समानान्तर सत्रे वक्तारः जलवायु प्रभावस्य प्रतिकरणाय अनुकूलन कार्यक्रमाणां परिचालनाय बलं दत्तवन्तः। सहैव वक्तृभिः क्षतेः प्रमाणितेन अनुसन्धानेन स्पष्टेण भाव्यं कोषे सहज प्राप्तेर्व्यवस्था च विधातव्येति बलं दत्तमासीत्। एवमेव सबलनगराणि समुदायाश्चेति विषयके समानान्तर सत्रे वक्तारः जलवायु परिवर्तनेन सहैव वर्धितं वायु प्रदूषणं नगराणां महती समस्या सम्भूतास्ति। अनया च विशेषतो बालबालिकानां वृद्धानाञ्च स्वास्थ्ये प्रतिकूलः प्रभावः प्राप्यमाणो वर्तते इत्युक्त्वा चिन्तां व्यक्तवन्तः। तदवसरे वक्तारः जलवायु विपदां कारणेन नगराणि असुरक्षितानि सम्भूतानि सन्तीति अवदन्। सत्रेऽस्मिन् ललितपुर महानगरपालिकायाः प्रमुखः चिरीबाबु महर्जन, काष्ठमण्डप महानगरपालिकायाः उपप्रमुखः सुनीता डंगोलः, नगरीय विकास मन्त्रालयस्य सहसचिवः पदम कुमार मैनाली, डाक्टर बिन्दुनाथ लोहनी च धारणां व्यक्तवन्तः। एवमेव पर्वतीय क्षेत्रेषु अनुकूलनाय विज्ञान प्रविध्योः संयोजनमिति विषयके समानान्तर सत्रे वक्तारः जलवायु परिवर्तनस्य प्रभावस्य न्यूनीकरणाय उपायानाम् अवलम्बनस्य कृते प्रविधिर्विकासेन सह वैद्युत साक्षरतायै बलं प्रदत्तवन्तः। सत्रेऽस्मिन् जलवायु परिवर्तनेन सह सम्बद्धस्य अन्तर सर्वकारीय समूहस्य महासचिवः अब्दालाह मोक्सिता जलवायु परिवर्तनस्य प्रभावः विशेषतः हिमालयीय क्षेत्रेषु निवसत्सु जनेषु अस्ति, यथासमयम् अनुकूलनस्य उपायानाम् अवलम्बने असति अतिरिक्तं संकटः वर्धिष्येति चेति चिन्तां प्राकटयत्। उच्चैः हिमालयीय क्षेत्राद् तटीय क्षेत्राणि यावत् निवसत्सु स्थानीय समुदायेषु जलवायोः परिवर्तनस्य प्रभावः अतिरिक्त वर्धितो वर्तते। तापक्रमस्य वर्धनात् अनियमित वृष्टेः पातः हिमनदीनां द्रवीभवनं वायु प्रदूषणं वातावरणीया क्षतिः जैविक विविधतायाः क्षतिश्चेति समस्याभिः एतेषां जीवनयापने खाद्यसुरक्षायां सांस्कृतिक सम्पदि च संकटः उत्पन्नोऽस्तीति चेत् उक्त्वा वक्तारः चिन्तां प्रकटितवन्तः। प्रतिनिधिसभायाः उपवेशः अद्य पूर्वाह्नस्य एकादशवादनाय निर्धारितो वर्तते। अद्यतनोपवेशे गत विक्रमवर्षीयं नेपालोड्डयन सेवा प्राधिकरण विधेयकं प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेषणीयमिति प्रस्तावस्य प्रस्तुतेः कार्यसूची अस्ति। एवमेव उपवेशे गत विक्रमवर्षीयस्य नेपाल नागरिकोड्डयन प्राधिकरण विधेयकस्य च प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेष्यताम् इति प्रस्तावस्य प्रस्तुतेः कार्यसूची अस्ति। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्त, शिक्षा स्वास्थ्य सूचना प्रविधि समितेः प्रतिवेदनेन सहितं राष्ट्रिय सभायाम् उत्पन्नं दशरथ चन्द्र स्वास्थ्य विज्ञान विश्वविद्यालय विधेयकं विमृश्यतामिति प्रस्तावं प्रस्तोष्यति। विमर्शनेन सह एतस्य विधेयकस्य पारितीकरणस्य सम्भावित कार्यसूची निर्धारिता अस्ति इति संघीय संसद सचिवालयस्य महासचिवेन पद्म प्रसाद पाण्डेयेन ज्ञापितं वर्तते। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली भाषते समीचीनं विचारं विना बहुप्रवृत्तिकः जनाः वामपन्थैकतायाम् आबद्धः कर्तुं न शक्यन्ते। एमाले दलस्य तात्कालिकस्य महासचिवस्य जननेतुः मदन भण्डारिणः, संघटन विभाग प्रमुखस्य जीवराज आश्रितस्य च स्मृतिदिवसस्य अवसरे ह्य बल्खुवर्तिनी मदननगरे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली न केवलं एकतायाः कृते एकता अपितु समीचीने विचारे सहमतान् विधाय दले जनानाम् आनयनस्य नीतिः अवलम्बनीया भवतीति बलं प्रादात् प्रधानमन्त्री ओली जनता सर्वविध शक्तीनां स्रोतो वर्तते इति मान्यतामाधृत्य जनतायाः शासनं स्थिरीकर्तुं प्रयत्नः विधीयमानो वर्तते इति चर्चयन् देशस्य राष्ट्रियतायाः स्वाधीनतायाश्च मार्गः आत्मना कदापि न त्यक्तोऽस्ति इति समस्पष्टयत्। भण्डारिणः आश्रितस्य च स्मृति दिवसस्य अवसरे नेकपा एमाले दलेन ह्यः देशस्य विभिन्नेषु जनपदेषु विभिन्नेषु स्थानेषु च विभिन्नाः कार्यक्रमाः समायोजिताः आसन्। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली देशस्य तीव्र विकासाय एमाले दलस्य बहुमतस्य सर्वकारः आवश्यको भवति इति उक्तवान् वर्तते। राष्ट्रिय युवसंघ नेपालस्य केन्द्रीय शिक्षा विभागेन ह्य दल केन्द्रीय कार्यालये आयोजिते युवोद्यमी सम्मान कार्यक्रमे प्रधानमन्त्री ओली देशं विकारात् संरक्षितुं व्यवधानेन विना सुशासनं तीव्र रूपेण स्थापयितुं च एमाले दलस्य बहुमतस्य सर्वकारस्य आवश्यकता अस्ति इति अवोचत्। नेपाली कांग्रेस दलस्य सांसदः आयव्ययकस्य समान रूपेण विनियोजनाय बलं ददति। बानेश्वरवर्तिनी संसद भवने ह्य उपविष्टे नेपाली कांग्रेस दलस्य संसदीय दलस्य उपवेशे सांसदः आयव्ययकस्य समान वितरणाय बलं प्रादुः। उपवेशे नेपाल राष्ट्रकोषस्य अधिशासकस्य नियुक्तिर्विषये आयव्ययकस्य क्षेत्रगत रूपेण सन्तुलित वितरणस्य विषयेषु च विमृष्टम् इति नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयः श्याम घिमिरे अज्ञापयत्। दलसभापतिना माओवादी केन्द्रस्य नेतृभिः सह विहितं विमर्शनं सामान्यमस्तीति चर्चयन् प्रमुख सचेतक पदीयः घिमिरे माओवादी केन्द्रेण सह मिलित्वा सर्वकार संघटनस्य कापि सम्भावना नास्तीति अगदत्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा निगदति सर्वेषां प्रतिनिधि सम्बलितेन समावेशी सिद्धान्तेन सहितायाः संघीय लोकतान्त्रिक गणतन्त्रात्मक शासन व्यवस्थायाः विकल्पो नास्ति। प्रजातान्त्रिक विचार समाजस्य स्थापनायाः त्रिंशत्तमस्य वार्षिकोत्सवस्य अवसरे पूर्वेद्युः आयोजिते कार्यक्रमे सभापतिः देउवा वर्तमान शासन व्यवस्थायां सम्भूतानां त्रुटीनां सुधारं विधाय सहकार्यस्य समन्वयस्य च आधारेण अग्रे वर्धनाय प्रतिबद्धतां व्यक्तवान्। सभापतिः देउवा देशे समानुपातिक निर्वाचन प्रणाली अस्तित्यतः कस्यापि दलस्य बहुमतं न सम्भवति इति चर्चयन् संयुक्त सर्वकारस्य अभ्यासस्य क्रमे संसदः द्वयोः विपुलयोः दलयोः सर्वकारः संघटितोऽस्ति इति प्रावोचत्। कार्यक्रमे नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला नेता अर्जुन नरसिंह केसी च विधेय शासनेन विना सुशासनं न सम्भवति इति अवोचताम्। सर्वकारेण जटिल रोगयुक्तानां रोगिणाम् उपचारं लक्ष्यीकृत्य नेपाल प्रशामक सेवा राष्ट्रिय रणनीतिः स्वीकृता वर्तते। अर्बुद हृदय फुप्फुस विस्मृति वृक्क सम्बद्ध दीर्घकालिक रोग प्रभावयुक्तेभ्य रोगहि ग्रस्तेभ्यश्च जनेभ्य प्रदेयायाः नेपाल प्रशामक सेवायाः कृते सर्वकारीयाणां सर्वकारीयेतराणां च स्वास्थ्य संस्थानां स्थापनायाः उद्देश्येन रणनीतिः स्वीकृता अस्ति। देशे अर्बुद रोगस्य कृते सुलभा सेवा विद्यमाना सत्यपि अन्येषां रोगाणां कृते प्रशामक सेवा उपलब्धा नास्ति इति समाचारः।